विभीषण ऋषि हनुमान देवता सर्वापदुद्धारक श्री हनुमत् प्रसादेन मम सर्वापन्निवृत्त्यर्थे सर्वकार्यानुकूल्यसिद्ध्यर्थे जपे विनियोगः ध्यानम् वामेतरे वैरिविधं वहन्तं शैलं परे शृङ्खलहारिटङ्कं दधानमच्छच्च वियज्ञसूत्रं भजे ज्वलत्कुण्डलमाञ्जनेयम् संवीतकौपीनमुदञ्चिताङ्गुलिं समुज्ज्वलन्मौञ्जिमथोपवीदिनं सकुण्डलं लम्बिशिखासमावृतम् तमाञ्जनेयं शरणं प्रपद्ये आपन्नाखिललोकार्तिहारिणे श्रीहनुमते अकस्मादागतोत्पातनाशनाय नमो नमः सीतादियुक्त श्रीरामशोकदुःखभयापह तापत्रितयसंहारिन् आञ्जनेय नमोऽस्तुते आधिव्याधि महामारि ग्रह पीडापहारिणे प्राणपहर्त्रे दैत्यानां राम प्राणात्मने नमः संसार सागरावर्त कर्तव्य भ्रांत चेतसां शरणागत मर्त्यानां शरण्याय नमोस्तुते वज्रदेहाय कालाग्निरुद्राय अमित तेजसे ब्रह्मास्त्र संभनायास्मै नमः श्रीरुद्रमूर्तये रामेष्टं करुणापूर्णं हनुमन्तं भयापहं शत्रुनाशकरं भीमं सर्वाभीष्टप्रदायकम् कारागृहे प्रयाणे वा संग्रामे शत्रुसंकटे जले स्थले तथा काशे वाहरेषु चतुष्पथे गजसिंह महाव्याघ्र चोरभीषणकानने ये स्मरन्ति हनुमन्तं तेषां नास्ति विपत्क्वचित् सर्ववानरमुख्यानां प्राणभूतात्मने नमः शरण्याय वरेण्याय वायुपुत्राय ते नमः प्रदोषे वा प्रभाते वा ये स्मरन्त्यञ्जनासुतम् अर्थसिद्धिं जयं कीर्तिं प्राप्नुवन्ति न संशयः जप्त्वा स्तोत्रमिदं मन्त्रं प्रतिवारं पठेन्नरः राजस्थाने सभास्थाने प्राप्ते वादे लभेज्जयम् विभीषणकृतं स्तोत्रम् यः पठेत् प्रयतो नरः सर्वापथ्य विमुच्येत नात्र कार्याविचारणा